शिव मानस पूजा ओम नमः शिवाय ओम नमः शिवाय ओम प्रत्यक् प्रणवधीवृत्या हृद्गृहांतः प्रवेशनम् मंडपांतः प्रवेशोयं पूजार्थं तव शंकर गुरुवाक्येषु विश्वासः स्थितिरासन संस्थितिः सर्वसंकल्प संत्यागः संकल्पः तव पूजने सर्वाधारस्त्वमेवेति निश्चयः पीठपूजनम् ध्यानध्यातृध्येयबाधो ध्यानमानन्दकारणम् दृश्यप्रमार्जनम् चित्तान्निर्माल्यस्य विसर्जनम् अहम् ब्रह्मेत्यखण्डाया वृत्तिर्धाराभिषेचनम् पृथिव्यात्मकता दृष्टिः तव गन्धसमर्पणम् बोधोपशम वैराग्यम् त्रिदलम् बिल्वमर्पये आकाशात्मकता बोधः कुसुमार्पणमीश्वर जगताकाशपुष्पाभम् इति पद्मम् समर्पये वायुतेजोमयत्वं ते धूपदीपावनुत्तमौ दृश्यासंभवबोधेन निजानन्देन तृप्तता सर्वतः प्रीतिजनकं नैवेद्यं विनिवेदये जलात्मकत्वबुद्धिस्तु पीयूषं तीर्पये पिब कर्तव्येष्व प्रसक्तिस्तु हस्तप्रक्षालनं तव दुर्वासना परित्यागः ताम्बूलस्य समर्पणम् वाचां विसर्जनं देव दक्षिणाश्रुतिसम्मता फलाभिसन्धिराहित्यम् फलार्पणमनुत्तमम् अहमेव परं ब्रह्म सच्चिदानन्दलक्षणम् एवं निदिध्यासवाक्यं स्तुतिः प्रियकरी तव नामरूपाणि न त्वत्तो भिन्नानीति मतिस्तु या तव पुष्पाञ्जलिः शम्भो सर्वत्रोत्कीर्ण पुष्कः स्वप्रकाशात्मबुद्धिस्तु महानीराजनं तव प्रादक्षिण्यं सर्वतस्ते व्याप्तबुद्धिः स्मृतं शिव त्वमेवाहमिति स्थित्या लीनता प्रणतिस्तव शुद्धसत्त्वस्याभिवृद्धिः छत्रं तापापनूदनम् रजस्तमस्तिरस्कारः चामरान्दोलने तव निजानन्दपरो धूर्ण दोलनान्दोलने तव धन्योऽहं कृतकृत्योऽहम् इति गानं तव प्रियम् निरङ्कुशं महातृप्त्या नर्तनं ते मुदे शिव नानाविधैः शब्दजालैर्जृम्भणं वाद्यमुत्तमम् शब्दातिगत्वबुद्धिस्तु कल्याणमिति डिम्डिमः वेदवत्तरगङ्गासौ मनुष्वते समर्पितः अहं भावमहामत्त गजेन्द्रो भूरिलक्षणः तत्र देहाद्यनारूप निष्ठा दृढ़तरोऽङ्कुशः अद्वैतबोधदुर्गोऽयम् यत्र शत्रुर्न कश्चन जनतारामविस्तारो रमस्वात्र यथा सुखम् कल्पना सम्परित्यागो महाराज्यम् समर्पयेत् भोक्तृत्वाध्यासराहित्यम् वरम् देहि सहस्रधा अखण्डा तव पूजेयम् सदा भवतु सर्वतः आत्मत्वात्तव मे सर्वम् पूजैवास्ति न चान्यथा इमाम् पूजाम् प्रतिदिनम् यः पठेद्यत्र कुत्रचित् सद्यः शिवमयो भूत्वा मुक्तश्चरति भूतले इति शिवमानसपूजा समाप्तः। ॐ नमः शिवाय। कल्याणमस्तु।